Nell'undicesima Nuvaka gli adempimenti di Rudra vengono grandemente elogiati e la sua benevolenza viene evocata con onori incondizionati. Questo Nuvaka è per la benedizione dei figli, per avere una lunga vita, per avere la grazia di poter visitare i luoghi sacri e per acquisire la conoscenza del passato, del presente e del futuro. Questi 11 potenti Nuvaka sono quelli recitati nei templi per l'abhisheka. Se non si è in grado di cantarli, il solo ascolto è sufficiente per trarne benefici.
Sairam.
We will start the class.
Inizieremo la lezione di questa sera
Today we'll be learning the,
imparando l'undicesima e ultima Anuvakam.
Start with Sahasranis, Sahasrasho. We'll all chant Gananam Tua.
Canteremo together. Prima Gananam tutti insieme.
श्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन्नोतिभिः सेदसादनम् प्रणो देवे सरस्वते वाजेभिर्वाजिनीवते धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ सहस्राणि सहस्रशो ये तेषागुं सहस्रयो जनेव अस्मिन् महत्यर्णवेऽन्तरिक्षे भव अधि नीलग्रीवाशितिकण्ठा दिवगुं रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा ये भूतानामधिपतयो ये ऋषिखासक्कपर्दिनः ये अन्येषु विविध्यन्ते पात्रेषु पिबतो जनान् ये पथां पथिरक्षया अयव्युधः ये तीर्थानि प्रचरन्ति निषङ्गिणः श्रीकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रापितस्थिरे तेषागुं सहस्रयोजनेव धन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिव्ये शामन्नम् वातो वर्षमिषवः तेभ्यो दश प्राचीः दशोर्ध्वाः तेभ्यो नमस्ते नो मृणयन्तु ेयं द्विष्मोयश्च नो द्वेष्टि तं भोजं भेदधामि
Il prossimo è un mantra molto importante.
Mahamrityunjaya mantra.
Trayambakam yajamahe. Trayambakam yajamahe. Trayambakam yajamahe. Sugandhim pushtivardhanam. Sugandhim pushtivardhanam. Sugandhim pushtivardhanam. Urvarukamiva bandhanat. Urvarukamiva bandhanat. Urvarukamiva bandhanat. Mrityormukshiyamamritat. Apsu yo rudro agnau yo apsu yo rudro agnau yo apsu ya oshadheshu ya oshadheshu ya oshadheshu yo rudro vishva bhuvana vivesha yo rudro vishva bhuvana vivesha yo rudro vishva bhuvana vivesha tasmai rudraya namo astu tasmai rudraya namo astu tasmai rudraya namo astu yete sahasramayutam paasha yete sahasramayutam paasha yete sahasramayutam paasha mrityo martyaya hantave mrityo martyaya hantave mrityo martyaya hantave tanyajnyasya mayaya tanyajnyasya mayaya tanyajnyasya mayaya sarvanavayajamahe 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 mrityaveswaha mrityaveswaha Granthirasi Prananam Granthirasi Prananam Granthirasi Rudro Ma Vishantakaha Rudro Ma Vishantakaha Rudro Ma Vishantakaha Tenanyena Pyayaswa Vishnave Namo Rudraya Vishnave Namo Rudraya Vishnave Mrityurme Pahi Mrityurme Pahi Mrityurme Pahi Tamushtuhi Tamushtuhi Yes, Vishuhu.
Yes, Vishuhu. Yes, Vishuhu.
Sudhanva.
Sudhanva. Sudhanva.
Yo Vishvasya.
Yo Vishvasya. Yo Vishvasya.
Shayati Bheshajasya.
Shayati Bheshajasya.
Yashva Mahe
Yashva
Con questo abbiamo finito l'undicesima e ultima Anuvaka Rudram, che rivisiteremo nuovamente.
Sahasrani Sahasrashoye,
Sahasrani Sahasrashoye, Sahasrani Sahasrashoye,
Rudra Adhibhumya. Sahasrayo Janeva,
Teshagum Sahasrayo Janeva, Teshagum Sahasrayo Janeva,
Dhanvani Tanmasi,
Dhanvani Tanmasi, Dhanvani Tanmasi,
Asmin Mahatyarnabe Tarikshe,
Divagum Rudra Upashrita, Divagum Rudra Upashrita, Divagum Rudra Upashrita,
Ye Vrikshesu Saspinjara,
Ye Vrikshesu Saspinjara, Ye Vrikshesu Saspinjara,
Nilagriva Vilohita, Adhipatayo,
Ye Bhutanamadhipatayo, Ye Bhutanamadhipatayo,
Vishikasakka Pardinaha,
Vishikasakka Pardinaha, Vishikasakka Pardinaha,
Ye Anneshu Vibhijyanti,
Ye
ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथां पथिरक्षया अयिलभृदायव्युधः ये तीर्थानि प्रचरन्ति श्रीकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुं सहस्रयो जनेव धन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे वातो वर्षमिषवः तेभ्यो दश प्राचीः दशोर्ध्वाः तेभ्यो नमस्ते नो मृणयन्तु तेयं द्विष्मोयश्च तं भोजं भेदधामि त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् क्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु यषधीषु यो रुद्रो विश्वाभुवना विवेश यो रुद्रो विश्वाभुवना विवेश यो रुद्रो विश्वाभुवना विवेश तस्मै रुद्राय नमो अस्तु
तस्मै रुद्राय नमो अस्तु तस्मै रुद्राय नमो अस्तु
येते सहस्रमयुतं पाशा
येते सहस्रमयुतं पाशा येते सहस्रमयुतं पाशा
मृत्यो मर्त्याय हन्तवे
मृत्यो मर्त्याय हन्तवे मृत्यो मर्त्याय हन्तवे
तान् यज्ञस्य मायया
तान् यज्ञस्य मायया तान् यज्ञस्य मायया
सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा
मृत्यवे स्वाहा मृत्यवे स्वाहा मृत्यवे स्वाहा मृत्यवे स्वाहा
प्राणानां ग्रन्थिरसि
प्राणानां ग्रन्थिरसि
शान्तकः
रुद्रो आविशान्तकः रुद्रो आविशान्तकः
तेनान्येनाप्यायस्व विष्णवे
नमो रुद्राय विष्णवे नमो रुद्राय विष्णवे
मृत्युर्मे पाहि
मृत्युर्मे पाहि मृत्युर्मे पाहि
तमुष्टुहि
तमुष्टुहि तमुष्टुहि
यस्विषुः सुधन्वा
सुधन्वा सुधन्वा
यो विश्वस्य
यो विश्वस्य यो विश्वस्य
शयति भेषजस्य
शयति भेषजस्य शयति भेषजस्य
यक्ष्वा महे
असुरं दुवस्य असुरं दुवस्य
अयं मे हस्तो भगवान्
अयं मे हस्तो भगवान् अयं मे हस्तो भगवान्
विश्वभेजजोयगुम् शिवाभिमर्शनः
Abbiamo completato l'undicesima Anuvakam con successo. Questo è certamente per grazia di Swami che in così breve tempo migliaia di studenti qui abbiano potuto imparare questo difficile passaggio dei Veda Anuvakam. Ora concluderemo la nostra lezione con Samastha Loka.
Shanti, 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 samastha lokaah sukhino bhavantu, samastha lokaah sukhino bhavantu, samastha lokaah sukhino bhavantu. Om shanti shanti shanti.